Date.
नमस्कारः.
नमस्कारः.
So Abhishek Mahodaya, can you please start from here? We'll just quickly revise what all we learned. So we have learned Pumlingaha, Trilingaha and Napunsakalingaha. Abhishek Mahodaya, are you there?
I'm Mahodaya. Shamyatam.
Chintam Astu Mahodaya.
Saha Kaha, Saha Cholaha. सः कः सः मकरः सः कः सः विद्युद्दीपः एषः कः एषः करदीपः एषः कः एषः घटः सः तत् किं तत् पुस्तकम्
So, Mahodaya, when you are also doing this, can you say which lingam it is?
Napunsak linga, Mahodaya.
Astu, napunsak linga shabdaha.
Napunsak linga shabdaha. Etat kim, etat vyajanam, napunsak linga shabdaha. Etat kim, etat urukam, napunsak linga shabdaha. एतत् किम् एतत् वातायनम् तत् किं तत् भोजनम् तत् किं तत् फेनकम् एतत् किम् एतत् गृहम् तत् किं तत् युतकम् तत् किं तत् कङ्कतम् एतत् किम् एतत् सङ्गणकम् एतत् किम् एतत् मित्रम् तत् सः कः सः मित्रः तत् किं तत् मित्रम्
समीचीनम्
सा का सा शय्या स्त्रीलिङ्गः शब्दः सा का सा पेटिका सा का सा पाञ्चालिका सा का सा बालिका एषा का एषा कुञ्चिका एषा का एषा शिला सा का सा मापिका एषा का एषा शाटिका सा का सा निधानिका एषा का एषा शर्करा एषा का एषा जलनालिका एषा का एषा सम्मार्जनी स्त्रीलिङ्गशब्दः सा का सा घटी एषा का एषा लेखनी सा का सा अङ्कणी सा का सा नदी सा का सा गायत्री एषा का एषा लक्ष्मीः सा का सा दुर्गा एषा का एषा सरस्वती सा का सा भद्रकाली सा का सा पार्वती सा का सा महिला सा का सा वृद्धा सा ज्येष्ठा सा का सा लता एषा का एषा माला एषा का एषा युवती ही एषा का एषा मयूरी सा का सा उत्पीठिका एषा का एषा सूची सा कर्तरी सा का सा लेपन पट्टिका एषा का एषा पट्टी एषा पट्टिका सा वैद्या एषा का एषा शिक्षिका सा द्विचक्रिका एषा का एषा दूरवाणी एषा का एषा जंगम दूरवाणी।
अस्तु महोदय,
धन्यवाद महोदय,
धन्यवाद। So, we have seen some of the words. So, today we will see some words that are specific to the kitchen. So, a kitchen is called as Pakashala. Okay? Pakashala. And the words related to the kitchen are called as Pakashala Sambandhini Vastuni. So, Vastuni here, Vastuni is basically the objects related to kitchen. Okay. Pakashala Sambandhini Vastuni. And it is actually in plural now. Vastuni is basically plural. So that is what we are trying to see here or try to understand. So first word that will come across is the fork. So fork is called as shulika. Fork is called as shulika. And then we have the spoon. Spoon is chamasaha. Chamasaha. And then we have the knife. Churika. And then we have a plate or a saucer. Thalika. Plate is a thalika. Astu. Then we have chashakaha. Chashakaha. And cheshakadhani. Cheshakaha is a cup or a glass. And the saucer is the cheshakadhani. Cheshakadhani is basically a saucer. And a tray is called as adhanika. And a tray is called as adhanika. And the roller for the chapati or something that is used to roll the chapati is called as vellani. Vellani. So that is the roller. And then we have ghataha. Ghataha is nothing but the pot or the vessel that can store water. Kataha is basically the pan or some kind of a vessel that can be used for cooking. Kataha. Manthanaha is basically churner. Churner. Darvi is basically that object that is used to take or draw water or draw some kind of curries. That is what is a darvi. Mishrakam is basically our mixie. Peshakam. So peshakam is basically our grinder. The bigger grinder is called as the peshakam. Mishrakam, peshakam. So then we have anila chullihi. Means gas stove. Indhanam means gas or fuel. Patram is basically a vessel. Bashpaha is steam. Droni is bucket. Droni. Okay. Darvi, droni. Vidyut chullihi is basically electrical stove, vidyut chulli. So here there is a sandhi, that is what is becoming a vidyut chulli. So vidyut chulli. Then koopi, koopi is basically a bottle. Koopi, koopi is basically a bottle. Jalakoopi, jalakoopi is nothing but drinking water. Sthikthavartika, sthikthavartika is candle. Parashuhu, parashuhu is axe. Saha parashuhu, parashuramaha, parashuramaha is the great guru. Then we have agni, agnihi, sorry not agni, agnihi, agnihi is fire. Kashtam is the firewood. Kashtam. Kashtam is basically firewood. And manjusha. Manjusha is basically the bucket, basket, which is made generally out of the raw materials available from the wood. Kashtam is the firewood. Dhumraha. Dhumraha is the Dhumaha. Dhumaha is basically the smoke that is emanating from the burning of some kind of fuel. Dhumaha. Dhumaha is that one. And then we have Bhashpasthali. Bhashpasthali is the cooker. Bhashpasthali, pressure cooker or steam cooker. Bhashpasthali. Chulli, apakaha, oven. Shodhani. Shodhani is the sieve to filter out the unnecessary thing and only liquid is passed through. Shodhani. Agni shalaka. Agni shalaka. Shalaka is basically, or agni petika. Agni shalaka is basically the matchstick. Agni petika is the match box. Agni shalaka means something that can ignite the fire. That is the matchstick. Suchuti. Suchuti is the one that can be, or it is that object that can hold vessels. Suchuti, right? Something that is hot. I think there are a lot of words that can be used for suchuti in native languages. That is the object that is hold, that is used to hold the hot objects or the hot vessels by gripping it in the palms. That is suchuti. Bhashpasthali, pressure cooker. Chulli, apakaha, oven. Shodhani is the sieve. Agnipetika is basically matchbox. Agni shalaka, shalaka is basically the matchstick. So these are the objects that we have. So we will try to address these words and also try to pronounce them. So Arun Mohdaya.
Ha Mohdaya.
Mohdaya, can you please pronounce these words and also attach the correct pronoun to it?
Ha Mohdaya. Sa ka, sa shulika, sah kaha, sah chamashah, yesha ka, yesha churika, sa ka,
churika,
sa churika.
Sa ka, the moment you say churika, it will become dhirga ukaranta. It is not dhirga ukaranta. It is hrasva ukaranta.
Okay, Mahode. Sa ka, sa churika. Yesha ka, yesha sthalika. Saha kaha, saha chashakaha. Yesha ka, yesha Chashakadani, Saka, Sa Adhanika, Yeshaka, Yesha Villani. Sahakaha, Sahagatha.
Gataha.
Gataha, okay. Sahakaha, Sahagataha. Yeshaka, Yesha Darvi. Saha kaha, saha kataha.
Kataha.
Yetat kim kataha. एतत् किम् एतत् मिश्रकम् सः कः सः मन्तानः तत् किम् तत् पेषकम् एषः कः एषः अनिल्लि चुल्लि
महोदय बिकास् इट् ईस् इन् बिकास् इट् ईस् एण्डिङ्ग् इन् विसर्गः बट् दिस् वर्ड् इस् ईवन् दो इट् इस् एण्डिङ्ग् इन् विसर्गः इट् इस् स्टिल् अ स्त्रीलिङ्गशब्दः महोदय
ओके महोदय सः सा का सा अनिलचुल्लि चुल्लि चुल्लि
चुल्लिः यु प्रोनौन्स् इट् करेक्ट्लि इट् इस् चुल्लिः
अनिलचुल्लिः एतत् किम् एतत् इन्धनम्
समीचीनम्
सः कः सः बाष्पः तत् किं तत् पात्रम् एषः कः एषः द्रोणी
Droni is again a Sthriliinga Shabda. It is not Pumling.
Oh, yes, yes, yes. Okay. Yesha ka, yesha Droni. Saha kaha, saha Vidyut Chulli. Oh, this Vidyut Chulli, is it Sthriliinga or Pumling?
Sthriliinga Shabda.
Sthriliinga. Okay. Sa ka, sa Vidyut Chulli. सा का सा कूपी एषा का एषा जलकूपी सः कः सः परशुः एतत् किम् एतत् शिक्तवार्तिका
एतत् किम् स्तिक्तवर्तिका इवन् दो द आब्जेक्ट् लुक्स् लैक् इट् इस् नपुंसकलिङ्गं बट् द वर्ड् इस् आक्चुलि स्त्रीलिङ्गशब्दः
ओके देन् इट् विल् बि सा का सा शिक्तवार्तिका
शिक्तवर्तिका नाट् वार्तिका वर्तिका
ओके शिक्तवर्तिका
समीचीनं
सा का सा अग्निः एतत् किम् एतत् काष्ठम् सा का सा मञ्जुषा सः कः सः धूमः तत् किम् तत् काष्ठम् सा का सा बाष्पस्थाली सा का सा चुल्ली सः कः सः आपक
आपाकः
सः कः सः आपाकः सा का सा सुचूटी
समीचीनम्
एषा का एषा शोधनी एषा का एषा अग्निपेटिका सा का सा अग्निशालका
अग्निशलाका
अग्निशलाका
समीचीनं महोदय धन्यवादः
धन्यवादः महोदय
अग्रे क्षमा भगिनी
महोदय ओन्ली वन् कन्फ्यूजन् Some words ending with visarga also are strilinga. How do we differentiate them?
Okay. For now, we will go with the identified words. Actually, there are rules how the ending of the words is classified. For that, we have to know the Maheshwara Sutrani. Because Maheshwara Sutrani, what it does is, it groups a group of letters as one rule or one abbreviation, ach. So we have some words like that which kind of groups the kind of letters into one group and these letters when combined with other things or ended with another things actually form the word. So for that we have to go through the Vyakarana classes, how and why this word is behaving like this, what are the rules, and this have been laid out by Panini Maharshi at the same time. Okay, at the same time, even when we are doing Vidyuchullihi, this is actually a sandhi. Sandhi is a compound word. Now when we are doing sandhi, we should understand why it is becoming cha and why not the ta is maintained here, or the why there is a da and why there is a ta and why this form is transformed to the cha. So this is a sandhi and it follows certain rule, and that rule is again also why this is happening is associated again in Vyakarana. For that we have to know the sutras, and every sutra is defined there. There are a group of sutras that define this. In this session we are not really covering the sutras, or we are not going to discuss how the Maheshwara sutranis are there or what are the gunas in it, all those things, which is a detailed subject. The parallel class is already running for it. You can still join them and go through those classes. These are the details that will be covered there. So the question is very detailed, and the answer also possibly in this beginning classes we will not be able to explain them. So for now, we'll only identify the words and try to see if we can remember them. Now that would be the best thing, because there are 4,000 Panini Maharshi's Vyakarana sutras, and the sutras are so nice in the sense that they are summarized into a single sentence or two sentences, right? Panini Maharshi uses lot of less words to explain a sutra, and the meaning of that sutra is very detailed. Even if I explain, or if I say some sutra, that will be of no use, because that sutra will have some pointer to another sutra which we should know. And the best the Vyakarana that we follow, just want to add few points, because this will be helpful for if you go to the Vyakarana classes. We are following Dr. Pushpa Deekshit's pedagogy. So there are various ways in which the Vyakarana has evolved. Previously, before Dr. Pushpa Deekshit actually enumerated the rules very well in a different format of learning and an easy format of learning, we generally used to learn Vyakaranam. Generally, people started learning Vyakarana by going through Siddhanta Kaumudi or going through Laghu Siddhanta Kaumudi. So these are the approaches that we used to take previously to learn the grammar. But slightly now, how are we going to learn the grammar? The pedagogy or the foundational style has been laid out by Dr. Pushpa Deekshit. That is the format that we are also learning in our Vyakarana classes. The Vyakarana teachers are very well trained, and some of them have also visited Dr. Pushpa Deekshit's ashram, who is rewarded by the President of India for her contribution to grammar, versatile contribution to grammar, and she has been contributing to grammar for the last 40 years. And she has done a great work with respect to this. She has simplified the approaches to grammar. So that is the pedagogy that we are also following in our Vyakarana classes. So if somebody is interested, please go ahead or write to Arbind Mahodaya or Swaroop Mahodaya for the more details, and you can join parallelly for Vyakarana classes or or Samasaha classes or Sandhi classes. These are running parallelly, and there is lot of material that has been covered. You can still join, you can learn it. It happens only once a week. And generally, in our traditional approach, the way people used to learn Sanskrit always was parallelly teaching the grammar. Any language, most of the times, when they start learning the language, they are also teaching the grammar. Right? Any local language in India, they also start teaching the grammar to it. That is the approach. Even Sanskrit used to take previously. People used to learn, or the students used to learn grammar simultaneously also. But these days, because of the time constraints for everybody, for the teachers and also for the students to come to a common place and learn it, it is becoming difficult. But still, Swarup Mahodaya and others have taken some efforts in this direction to run these classes parallelly. So anybody who is interested, who wants to learn grammar as well, there are classes going on weekly. There are almost 3 or 4 classes running weekly. Any day preference, please go ahead and write to them. They will join you in those classes also. Again, all these classes that are happening are free of cost. So this is everything that is being done is done as a service. This is a volunteer service that we are also doing.
Dhanyavada Mahode. Dhanyavada.
Asta Mahode. So that was about it. And next one, Shema Bhagni.
Namaste. Namo Namaha.
Namaskar Bhagni. Namaskar Bhagni.
Pakashala Sambandhini. वस्तूनि सा शूलिका सः चमसः सा छुरिका सा स्थालिका सः चषकः सा चषकाधानी सा आधानिका सा वेल्लनी सः घटः सः कटाहः सः एषः मन्थानः एषा दर्वी एतत् मिश्रकम् तत् पेषकम् यू हैव टू चेंज दि
दर्वी भगिनी दर्वी आल्सो कैन यू आल्सो डू
दर् एषा दर्वी सा अनिलचुल्लिः एतत् इंधनम् एषः बाष्पः एतत् पात्रम् सा द्रोणी सा विद्युच्चुल्लिः सा सिक्तवर्तिका एषः परशुः सः अग्निः एतत् काष्ठम् सा कूपी अरे इट वेंट टू द नेक्स्ट पेज सॉरी
अस्तु सॉरी सॉरी भगिनी
एषा कूपी एषा जलकूपी सा अगेन इट वेंट टू डिफरेंट पेज एषा मंजूषा एषा सिक्तवर्तिका एषा मंजूषा सः धूमः एतत् काष्ठम् सा बाष्पस्थाली सः आपकः सा चुल्ली सा सुचूटी एषा शोधनी एषा अग्निपेटिका सा अग्निशलाका
समीचीनं भगिनि धन्यवादः
धन्यवादः महोदय
अग्रे ललिता भगिनी
नमस्कार महोदय
नमस्कार भगिनी
हा सा का सा शूलिका सः का सः चमसः सा का सा
भगिनी एकनिमिषम् इट् इस् सः कः नाट् सः का सा का इस् स्त्रीलिङ्गं पुंलिङ्गं सः कः
सः कः सः चमसः सा का सा चुरिका एषा का एषा स्थालिका सः कः सः चषकः एषा का एषा चषकादानी एषा का एषा आधानिका सा का सा वेल्लनी सः कः सः गठः सः एषः एषः कः एषः कटाहः सः कः सः मन्तानः सा का सा दर्वी एतत् किम् एतत् मिश्रकम् तत् किम् तत् पेषकम् सा का सा अनिलचुल्लिः एतत् किम् एतत् इन्धनम् सा सः कः सः बाष्पः तत् किं तत् पात्रम् एषा का एषा द्रोणी सः कः सः विद्युचुल्लिः
भगिनी दिस् विद्युच्चुल्लिः इस् आल्सो स्त्रीलिङ्ग शब्दः सो देट् विल् बिकम्
सा का ओके ओके सा का सा विद्युचुल्लिः
समीचीनं
सा का सा कूपी सा का सा जलकूपी सः कः सः अग्निः तत् किं तत् काष्ठम् सः कः सः परशुः एषा का एषा सिक्तवर्तिका सा का सा मञ्जूषा सः कः सः धूमः एतत् नो तत् किं तत् काष्ठम् सा का सा बाष्पस्थाली सा एषा का एषा सुचुटी एषा का एषा अग्निपेटिका सा का सा अग्निशालका अग्निशलाका सा एषा का एषा शोधनी सा का सा चुल्ली सः एषः कः एषः आपाकः आपाकः इस्
इस् द ओवन् आपाकः इस् आल्सो ओवन् चुल्लिः चुल्ली इस् आल्सो दि ओवन्
So both are strilinga.
One is pumlinga shabda, the other one is the strilinga shabda.
Okay. So I said correct, no?
Correct. Yes, well, it was right.
Okay. Dhanyavad Mahodaya.
Dhanyavad Bhagini.
Agre, Vijayan Mahodaya.
Astu Mahodaya.
कृपया एतत् कुर्वन्तु
एषा का एषा शुनिका एषा का एषा चंसः
एषः कः
एषा च इष्टे पुल्लिङ्गे
हा पुंलिङ्गः कः स्त्रीलिङ्ग का
ओके एषः एषः कः एषः चंसः एषा का एषा चूरिका एषा का ये स्थालिका एषा तालिका एषा का एषा चषकः
एषा का न एषा कः एषः कः
एषः कः एषः चषकः एषा चषकः सारी चषकः एषा का एषा चषकदानी 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 सा का सा अधानिका सा का सा वेलनी
वेलनी
सह कः जग सः घटः सः कः सः काटकः
कटाहः
काटकः न कटाहः घटः घटः महोदय घटः घटः कटाहः घटकः सा का सा मन्थनः
सः कः
सः कः अस्मि सः कः सः मन्थनः मन्थानः ये दर्वि सा का सा दर्वी एतत् किम् एतत् मिश्रकम् एतत् किम् एतत् पेषकम् सा का सा अनिलचुल्लिः एतत् किम् अनिलचुल्लिः एतत् किम् एतत् इन्धनम् सा का सा बाष्पः
बाष्पः इस् हियर् पुल्लिङ्गशब्दः सो यु केन् यूस् सः कः
ओ थेङ्क् यू सः कः सः बाष्पः एतत् किम् एतत् पात्रम् सः सा का सा द्रोणी सा का सा विद्युच्चुल्लिः सा एषा का एषा कूपी एषा का एषा जलकूपी सा का सा शिक्षवर्तिका सिक्तवर्तिका एतत् किं सिक्त सिक्तवर्तिः रैट्
वर्तिका
सिक्तवर्तिका एतत् किम् एतत् परशुः सा किम्
न न न पुंलिङ्गशब्दः एषः कः
एषः कः एषः परशुः सः सः कः सः अग्निः एतत् किम् एतत् काष्ठम्
काष्ठम्
सा का सा धूमः
सः कः सः धूमः
सः कः सः धूमः एतत् किम् एतत् काष्ठम् सा का सा मञ्जुषा ओके एषा का एषा भाष्य
बाष्पथाली
बाष्पथाली थाली
it is a combination of s and h tha s t h a tha
thali oh sorry bashtathali esha ka esha susuti this is sa ka sa agni petika tat tat kim tam अग्नि शलाका
शलाका इज आल्सो स्त्रीलिंग शब्द हियर इट इज नॉट क्लासिफाइड अंडर नपुंसकलिंगम सो इट विल बिकम एषा आर सा नॉट तत् और
एषा अग्निशलाका
शलाका
अग्निशलाका ओके दिस चुल्ली एषा का एषा चुल्ली एषा का एषा आपक आपकः आपकः स्त्री पुल्लिङ्ग् ओके सः सारि एषः कः एषः आपक आपकः आपकः सारि आपकः अच्छा सारि मोदिनी सारि शोधिनी एषा का एषा शोधनी
समीचीनं महोदय अस्तु अग्रे प्रेमा भगिनी
नमस्ते
नमस्कार भगिनी
शाखा शा सुलिखा सः कः सः खमसः
चमसः च च
चमसः एष एषः खमसः सा कः सा छुरिका
समीचीनम्
एषः एषा शालिका
स्थालिका
एषा शालिका शालिका सः कः सः चषकः
चषकः
चषकः सः सः सा आदानिका सः
सः न भगिनी भगिनी इट् इस् नाट् सः इट् इस् सा
सा सा सा वालङ्नी
समीचीनम्
सः कः सः कथः सः कः सः कथः एषः कः एषा मन्थाः मन्थाः
मन्थानः
Is it missing an N?
Yeah, it is missing here, but I'll add it. Okay.
Okay. Mantanaha. Okay. Sa ka sa dwavi.
Darvi.
Darvi. Darvi.
Yes.
Tat kam tat nish. Tat mishra kam. Etakim.
You are right. First time you are right. It is etat only. It is not esha or esha. Etat. For Napunsaka lingam, it is etat or tat.
Okay. Etakim. Etapeshakam.
Samichina.
Sakha sa anila chuliha.
Chulihi.
Chulihi. Sa chuli cha sa anila chulihi.
Samitina.
Sa ka saha kaha saha bash bash. Pahi.
Pashpaha.
Pashpaha. Pashpaha. Sa kam sa du sa druni. Tat kim tat in tat in danam. Etakim etapatram.
Patram.
Patram. Saka sa vidyo chalinghi.
Vidyo chullihi.
Sa vidyo chulihi.
Samichinam bhagini.
Sa ka sa kupi.
Kupi.
Kupi. Sa kupi. Esha ka esha sik. Tavartika.
Samichinam.
Saha kaha saha agnihi.
Samichinam.
Esha kaha esha kashtam.
Bhagini, this is not esha ka, this is napumsaka linga vashabdha.
Tat kim tat kashtam. Shaha kaha saha parashtuhu.
Samichino.
Saka sa jala kupi.
Bahu samichino. Koopi, correct. The first time pronunciation was right. Koopi.
Koopi, okay. Sa, sa ka, sa maja, majushaha.
Shahana, manjusha, that's all. No shaha, manjusha.
Manjusha. Sa, sa manjusha. Saha kaha saha
धूमः तत्किं तत् काष्ठं
बहु समीचीनं
समीचीनम्
समीचीनम्
समीचीनम् तत्किं तत् शोतानि
This is not Napunsakalinga Bhagini. This is also Strilinga. So don't use that.
Okay. Okay. Sakam. No. Sakam. No.
Kamna. Kim. That is Kim for Napunsakalinga. Ka. Only Ka. Only Ka.
Saka. 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 Sa. So. Dani. Esha.
Again, kam no, ka, only, Bhagini, it is only Kim.
Esha ka, esha chuli.
Samichinam.
Saha kaha, saha apha kaha.
Bahu samichinam. Astu Bhagini. Dhanyavada. अग्रे राममोहन महोदय राममोहन महोदय अस्ति वा अस्तु राममोहन महोदय नास्ति अत्र अग्रे कृष्णमूर्ति महोदय
आं महोदय सा का सा शूलिका सः कः सः चमसः सा का सा चुरिका सा का सा स्थालिका एषः कः एषः चषकः सा का सा आधानिका सा का सा चषकाधानी सा का सा वेल्लानी
वेल्लनी
सः कः सः घटः सः कः सः कटाहः सः कः सः मन्थानः सा का सा दर्वी एतत् किम् एतत् मिश्रकम् तत् किम् तत् पेषकम् सा का सा अनिलचुल्लिः सः कः सः बाष्पः सा का सा द्रोणी एतत् किम् एतत् इन्धनम् तत् किम् तत् पात्रम् सः कः सः विद्युच्चुल्लिः सा का सा कूपी सा का सा सिक्तवर्तिका सः कः सः अग्निः सा का सा जलकूपी सः कः सः परशुः एतत् किम् एतत् काष्ठम् सा का सा मञ्जूषा सः कः सः धूमः एतत् किम् एतत् काष्ठम् सा का सा बाष्पस्थाली सा का सा सुचुटी सा का सा अग्निपेटिका सा का सा चुल्ली एषः कः एषः आपाकः सा का सा शोधनी सा का सा अग्निशलाका
समीचीनं महोदय बहु समीचीनं धन्यवादः
धन्यवादः महोदय
बहु समीचीनम् अस्तु अग्रे सो दीस् आर् द वर्ड्स् देट् वी हव् सीन् फार् पाकशाला अण्ड् दीस् आब्जेक्ट् रेफर् टु दि किचन् रैट् पाकशाला इत्युक्ते किचन् वस्तूनि इत्युक्ते आब्जेक्ट्स् दीस् आर् दि ऐटम्स् दट् आर् रेफर् टु एस् किचन् सो इफ् यु गेट् अ चान्स् and you see some objects in the kitchen, please try to recall them. That way we can have these reinforced and we will be able to recite them again when we see some objects. So at least try to identify 5 objects in the kitchen that you have learned today and refer to them using the Sanskrit language rather than using your own language. That way this will get reinforced. So for the next 5 to 6 days, again till we meet, whenever you see an object in the kitchen or something that you have identified, or we have seen a lot of objects so far, right? So please try to revise them and pronounce it aloud. That way we will get the word right, and also we will be able to reinforce within ourselves. That way the language learning will be easier. So next set of words are to the living room or the main room. So room in Sanskrit is called as prakoshtah, and mukhya prakoshtah is the main living room or the main room. Okay, mukhya prakoshtah tah. Okay, this is mahaprana, this is not alpa prana. So mukhya prakoshtah. Astu. So here we will try to revise the words and try to see how they are referred to as bhittih. Sa bhittih. Bhittih ityukte the wall. Bhittih. Bhittih is this one. This is the wall here. Bhittih. Sa bhittih. Mudrana yantram. Mudrana yantram is the recorder. Something that is playing. Mudrana yantranam. Yantram. Mudrana yantram. The recorder that you see here. Then tapanukulakah is the air conditioner. Okay, tapanukulah, something that kind of regulates the temperature, is tapanukulakah, which is nothing but the air conditioner. Vatayanam is the window. Vatayanam, so tat vatayanam. तापानुकूलकः एषः तापानुकूलकः सः तापानुकूलकः एयर् कण्डीशनर् एयर् रेगुलेटर् तापानुकूलकः संथिङ्ग् देट् रेगुलेट्स् द टेम्परेचर् तापानुकूलकः मुद्रणयन्त्रं नपुंसकलिङ्गशब्दः एतत् मुद्रणयन्त्रं तत् मुद्रणयन्त्रं देट् इस् दि रेकार्डर् दिस् इस् दि रेकार्डर् एतत् तत् एतत् इस् दिस् इस् देट् इस् तत् मुद्रणयन्त्रम्। सा भित्तिः, सा भित्तिः, भित्तिः सा भित्तिः, वाल् सा भित्तिः। उत्पीटिका, उत्पीटिका इत्युक्ते द टेबल् आन् विच् द टीवी इस् रिसैडिङ्ग्, उत्पीटिका। कटः, उत्पीटिका आगे स्त्रीलिङ्गशब्दः, सा उत्पीटिका, एषा उत्पीटिका। कटः, कटः इस् अगेन् द कार्पेट्, सः कटः, एषः कटः, सः कः, सः कटः, सा का, सा भित्तिः, सा भित्तिः। देन् वि हाव् द टिवि, तत् किं, तत् दूरदर्शनम्, दूरदर्शनम्। सो दूरदर्शनम् इस् टेलिविजन्, दूरदर्शनम्। सो तत् किम्, एतत् किम्, एतत् दूरदर्शनं, तत् किं, तत् दूरदर्शनम्। विद्युद्दीपः, विद्युद्दीपः इत्युक्ते एलेक्ट्रिकल् लेम्प्, विद्युद्दीपः। सो विद्युत् इस् एलेक्ट्रिसिटि, दीपः इस् द लेम्प्, एलेक्ट्रिकल् लेम्प्, विद्युद्दीपः। दण्डदीपः ट्यूब्लैट्, विद्युद्दीपः एलेक्ट्रिकल् बल्ब् और् एलेक्ट्रिकल् लेम्प्। चलनचित्रं, चलनचित्रं समथिङ्ग् दट् इस् प्लेयिङ्ग् अ मूवी, समथिङ्ग् आर् समथिङ्ग् दट् इस् प्लेयिङ्ग् इन् अ टिवि, चलनचित्रं। तत् किं, तत् चलनचित्रम्, एतत् किम्, एतत् चलनचित्रम्। सा का, सा सञ्चिका, एषा का, एषा सञ्चिका। सा का, सा सञ्चिका, सञ्चिका इत्युक्ते द फैल् आर् द फैल् होल्डर्, सञ्चिका, समथिङ्ग् दट् इस् यूस्ड् टु नोट् फैल्। पुस्तकम्, एतत् किम्, एतत् पुस्तकम्, तत् किं, तत् पुस्तकम्। द्वारं, द्वारं, द्वारम् इत्युक्ते डोर्, पुस्तकम् इत्युक्ते बुक्, द्वारम् इत्युक्ते डोर्। तत् किं, तत् द्वारम्, एतत् किम्, एतत् द्वारम्। निधानिका, निधानिका इत्युक्ते, इत्युक्ते कबोर्ड्। तत् किम्, एषा का निधानिका, तत् तत् सारि, सा का, सा निधानिका, एषा का, एषा निधानिका। उपादानम्, उपादानम् इस् नथिङ्ग् बट् द रेस्टिङ्ग् पिल्लो, उपादानम्। तत् किं, तत् उपादानम्, एतत् किम्, एतत् उपादानम्। अस्तु, so these are the objects that we kind of come across in a prakoshtah, prakoshtah room, mukhya prakoshtah, main room, mukhya prakoshtah, main room. So we have seen what are these areas. So we have seen pakashala, and this is the living room. So we will try to identify the objects in the living room now. So Veena Bhagini, are you there?
Namaskaram Mahodaya, Asmi.
Namaskar Bhagini, can you please do the words that are available in our main room?
Astu Mahodaya. Mukhya prakoshtah, sa ka, sa bhittihi, tat kim, tat mudrana yantram. सः कः, सः तापानुकूलकः, तत् किं, तत् वातायनम्, एषा का, एषा उत्पीठिका, सः कः, सः कटः, एतत् किम्, एतत् दूरदर्शनम्, एषः कः, एषः विद्युद्दीपः, तत् किं, तत् चलनचित्रम्, सा का, सा सञ्चिका, तत् किं, तत् पुस्तकम्, एतत् किम्, एतत् द्वारम्, सा का, सा निधानिका, तत् किं, तत् उपादानम्।
समीचीनं भगिनि, बहु समीचीनं, धन्यवादः। अग्रे अर्जुन् महोदय, अर्जुन महोदय अस्ति वा? अस्ति, अस्तु। उमाशंकर महोदय।
आम्, मुख्य प्रकोष्ठक सा का सा भित्तिः तत् किं तत् मुद्रणयनम्
मुद्रणयन्त्रम्
मुद्रणयन्त्रम् मुद्रणयन्त्रम् सः कः सः तापानुकूलकः तत् किं तत् वातायनम् सा का सा उत्पीठिका सः कः सः कटः तत् किं तत् दूरदर्शनम् सः कः सः विद्युद्दीपः एतत् किम् एतत् चलनचित्रम् एतत् एषा का एषा सञ्चिका तत् किं तत् पुस्तकम् एतत् किम् एतत् द्वारम् सा का सा निदानिका तत् किं तत् उपादानम्
समीचीनं महोदय, बहु समीचीनम्। अस्तु, अग्रे so we have a question here, let me see what is the question. The this is not mahapranam mahodaya, this is alpapranam. In utpitika this is alpapranam only, this is not actually, you are right, this would be mahapranam. Actually it should be mahaprana, but the given here is alpaprana. It should be utpitika. Utpitika, it is given as utpitika. We will come across the correct word as we go forward, but whatever you have learnt previously, it was right. It is utpitika, this is mahaprana. What is given here is actually the alpaprana. This should be mahaprana. So the correction is observed. We will try to edit this also. Astu mahodaya, astu. So agre, did anybody didn't get a chance today? If I missed anybody, please let me know. Sudhindra mahodaya.
आं महोदय, सा किं सा भित्तिः
महोदय, एकनिमिषं पुनः एकवारं वदतु, इट् इस् नाट् सा किं, वेन् यु यूसिङ्ग् सा,
सा का, सारि सारि, सा का सा भित्तिः एतत् किम् एतत् मुद्रणयन्त्रम् मुद्रणयन्त्रम् एषः का एषा तापानुकूलिका
न न एकवारं पुनः वदतु
एषा तापानु
महोदय विसर्ग शुड् बि स्ट्रेच्ड् अदर्वैस् see, one thing what will happen is, if we are not regulating our airflow while we are pronouncing, we will keep on missing these and we will get into wrong pronunciation. And for Sanskrit, if we are doing it, vak shuddhi will not come to us and a lot of the things we will miss. Astu Maurya, so please try to notice their pronunciation.
Eshah kaha, eshah tapanukulaha. तापानुकूलकः, सोरि, एतत् किम् एतत् वातायनम् सा का सा उत्पीठिका एषः कः एषः कटः तत् किं तत् दूरदर्शनम् एषः कः एषः विद्युद्दीपः एषः कः एषः विद्युद्दीपः तत् किं तत् चलनचित्रम् सा का सा सञ्चिका एतत् किम् एतत् पुस्तकम् तत् किं तत् द्वारम् एषा का एषा निधानिका तत् किं तत् उपादनम्
उपादानम्
उपादानम्
समीचीनं महोदय अस्तु महोदय धन्यवादः
धन्यवादः
अस्तु सो अस्तु महोदय सो दट् इस् वाट् वी हाव् फर् टुडे सो देर् इस् वन् वर्णमाला गीतं फार् विच् द लिङ्क् इस् असोसियेटेड् प्लीस् लिसन् टु दिस् एस् पार्ट् आफ् युर् होम्वर्क् प्लीस् रिवैस् वाट् एवर् वी हाव् डन् सो फार् रैट् फ्रम् द फस्ट् क्लास् to this class and also listen to the Varnamala Geetam that is given here. This is basically giving us how the Varnamala poem or the rhyme is there. If you get a chance, please try to listen to this Varnamala Geetam describing each of these, and also it describes how the background is also, and then tries to associate the respective consonants with each of that each of the line here. So please try to listen to this rhyme whenever you get a chance, and we will end the session today with the Shanti Mantram. And our Shanti Mantram is to pray for the well-being of everybody, including ourselves.
Mahoday, I have a question before we go further.
Aam Mahodaya, please go ahead.
Slide 81, Mahodaya.
81, yeah.
The bottom, Chulli Apakaha is one word, or it's Chulli and Apakaha is separate?
Chulli Apakaha, so Chulli is basically the oven only, or something that is made for making things object. Apakaha is again a same reference to the object, but it is a different word. Chulli apakaha.
Apakaha.
Atva apakaha. Astu mahode?
Astu mahode.
So, both are reference to same. Probably, we'll try to have that separated if it is causing the confusion. Astu. Astu. So, we'll end with Shanti Mantram. Praying for wellness of everybody, including ourselves. Om Sarve Bhavantu Sukhinah, Sarve Santu Niramayah, Sarve Bhadrani Pashyantu, Ma Kaschid Dukha Bhag Bhavet. Om Shantihi, Shantihi, शान्तिः अस्तु धन्यवादः पुनः मिलामः अग्रे सप्ताहः
धन्यवादः
शुभरात्रिः शुभदिनम्